इयम् आकाशवाणी सम्प्रति वार्ताः श्रूयन्ताम् प्रवाचकः कृष्णप्रसादोपाध्यायः। प्रधानमन्त्रिणा नरेन्द्रमोदिना अद्य विविध सर्वकारीय च नवनियुक्तेभ्यः युवकेभ्यः 150,000+ नियुक्तिपत्राणि वीडियो कॉन्फ्रेंसिंग इति माध्यमेन वितरिष्यन्ते। अयं कार्यक्रमः सर्वकारस्य साम्प्रतिक रोजगार मेला इत्युपक्रमस्य भागः अस्ति। कार्यक्रमावसरे प्रधानमन्त्री नवनियुक्तान् कर्मकरान् अपि सम्बोधयिष्यति। 16वां रोजगार मेलेति कार्यक्रमः सम्पूर्णे देशे 47 स्थानेषु भविष्यति। सम्पूर्णे देशे रोजगार मेलानां माध्यमेन अद्य पर्यन्तं 10,00,000+ नियुक्तिपत्राणि प्रदत्तानि सन्ति। केन्द्रीय गृहमन्त्री अमितशाहः केरलस्य 2-दिवसीय यात्रायै गतरात्रौ तिरुवनन्तपुरं सम्प्राप्तवान्। विमानस्थानके भाजपेति दलस्य वरिष्ठनेतृभिः दलकार्यकर्तृभिश्च स्वागतं कृतम्। श्रीशाहः अद्य राज्यस्य राजधान्यां विभिन्न कार्यक्रमेषु भागं ग्रहीष्यति। अद्य प्रातः सः भाजपादलस्य नूतनस्य राज्यकार्यालयस्य उद्घाटनं करिष्यति। पश्चात् सः पुथारिकण्डं क्रीडाङ्गणे मतदानकेन्द्रस्तरीयाणां दलकार्यकर्तॄणां विशालसभां सम्बोधयिष्यति। अपराह्णे श्रीशाहः तालिपरम्बस्य श्रीराजेश्वरमन्दिरे प्रार्थनां कर्तुं कन्नूरनगरं गमिष्यति। राष्ट्रियसुरक्षापरामर्शकः अजीत डोभालः अवदत् यत् सद्यः एव कृतस्य ऑपरेशन सिन्दूर इत्यस्य समये भारतदेशः पाकिस्तानान्तं 9 आतङ्कवादिस्थानकानामुपरि लक्ष्यीकृतवान्, सीमायाः समीपे न अपि तु तस्यान्तप्रदेशेषु। चेन्नैनगरे IIT मद्रास इति संस्थायाः 62वां वार्षिकदीक्षान्तसभायां भाषणं कुर्वन् श्री डोभालः अवदत् यत् आक्रमणानि तावत् सुनिश्चितानि आसन् यावत् भारतीय सशस्त्रसेना जानाति स्म यत् कः कुत्र अस्ति इति।
We decided to have 9 terrorist targets in the crisscross of Pakistan. We missed none. And it was precise to the point where we knew who is where. Entire operation was started at 1:05 and was over at 1:28.
श्री डोभालः ऑपरेशन सिन्दूर इत्यस्य विषये दुष्प्रचारं प्रसारयितुं विदेशी माध्यमानां निन्दाम् अपि अकरोत्। निर्वाचन आयोगः अवदत् यत् बिहारस्य प्रायः 90.97 crore निर्वाचकानां मध्ये 74% जनाः गत 17 स्वस्य गणनाप्रपत्राणि समर्पितवन्तः। आयोगः अवदत् यत् विशेष गहन संशोधनस्य द्वितीये चरणे मतदानकेन्द्रस्तरीयाः अधिकारिणः निर्वाचकानां साहाय्यं कर्तुं तेषां पूरितानि गणनाप्रपत्राणि सङ्गृहीतुञ्च प्रतिगृहं गच्छन्तः सन्तीति। रक्षानुसन्धानविकाससङ्घटनेन सह भारतीयवायुसेनया च ह्यः स्वदेशनिर्मितायाः अस्त्र इति क्षिपण्याः उड्डयनपरीक्षणं सफलतया सम्पादितम्। परीक्षणम् ओडिशाराज्यस्य Sukhoi-30MK-1 इति स्थलात् कृतम्। अमेरिकादेशस्य राष्ट्रपतिः डोनाल्ड ट्रम्पः अवदत् यत् सः नाटो इत्यनेन सह मैत्रीभावेन युक्रेनदेशं प्रति शस्त्राणि प्रेषयितुं सन्धिं कृतवान् इति। राष्ट्रपतिः ट्रम्पः ह्यः एकया वार्तावाहिन्या सह वार्तालापं कुर्वन् एतदुक्तवान्। अमेरिकादेशः पेट्रियाट् वायुरक्षाप्रणालीति सहितं शस्त्राणि यूरोपदेशे स्वस्य नाटो मित्रराष्ट्राणां कृते विक्रयिष्यति, येन ते तानि शस्त्राणि युक्रेनदेशाय दातुं शक्नुवन्ति इति। अन्ते क्रीडावार्तासु। क्रिकेट् क्रीडायाम् अद्य लण्डननगरस्य लॉर्ड्स क्रीडाङ्गणे एण्डर्सन् टेण्डुल्कर् ट्रोफीति क्रीडायाः तृतीयनिकषक्रीडायाः तृतीये दिने आतिथेयो इङ्ग्लेण्डदेशं विरुध्य रात्रौ स्तोभत्रयाणां हानौ 55 धावनाङ्कान् कृत्वा भारतं स्वस्य प्रथमपारीं पुनः आरभते। क्रीडायाः आरम्भः भारतीयसमयानुगुणं 3:30 दिवसी भविष्यति। इङ्ग्लेण्डदेशदलं प्रथमपार्यां 87.3% अरचयत् इति वार्ताः।